द्वितीयोऽध्यायः नरः आहारं पचति नृपौ आहारं खादतः वदामः पचामः च हे नर सीदसि आहारं च पचसि आहारं पचतः नृपौ च न खादतः हे नृपाः नराः आहारं पचन्ति खादन्ति च नरौ सीदतः आहारं च पचतः नरं वदामि आहारं च खादामि आहारः न खादाति न च पचति।